आरम्भं करोतु भगिनी कृपया।
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा।
गुरुब्रह्मा गुरुविष्णु
गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः।
धन्यवादः। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। सर्वेषां स्वागतम् अद्यतनकक्षायां। सर्वे अभ्यासं कृतवन्तः इति चिन्तयामि। Did all of you practice whatever we learnt in the last week? Any questions, any doubt? Were you able to understand whatever we learnt so far? Astu. So, aham chintayami sarve avagatavantah iti. Punaha aham I am going to start with the same conversation, but I have made some changes with whatever we have learned from last week. Etasya, tasya, etasyaha, tasyaha, upayuchya. Astu. Idani, Shobana Aditya Mahodaya, Apicha Sukanya Bhagini, Mala Hari, Vachanam Patantu.
Namaste. अहं हरि सा किं
हु आर् यु
भवान् कः
न यु आर् आस्किङ्ग् अ लेडी सो
भवती का
भवती का नमस्ते मम न अयं हरिः अहं हरिः भवती का सुकन्या भगिनी
अयां माला अयां टीचर् वाट् आर् यु अहं मम नाम माला
अहं माला
अहं माला अहम् अध्यापिका अस्मि भवान् का
भवान् कः भवान् कः
अहं वैद्यः सः कः
हु इस् दिस्
एषः कः
एषः कः
एषः मम पतिः एषस्य
न एषस्य न एषस्य न भगिनि
एतस्य नाम शिवः एतस्य सारि
चिन्ता मास्तु एतस्य पुनः एकवारं सम्पूर्णं वदतु भवत्याः वचनं
एषः मम पतिः एतस्य नाम शिवः
एतस्य नाम शिवः इदानीं हरिः शिवं पृच्छति वदतु महोदय शोभना
नमस्ते भवान् कः
इदानीं शिवस्य रमेश महोदय कृपया पठन्तु शिवस्य वचनम्
अहम् अध्यापकः एषा भवतः पुत्री वा
उत्तमं भवतः पुत्री वा एषा भवतः पुत्री वा
थेङ्क् यु
आम् एतस्य एषा मम पुत्री एषा नाम
गीता हर् एषा इत्युक्ते दिस् her to say her
एतस्याः नाम गीता
नामः न नाम एव किमर्थम् इत्युक्ते नाम नपुंसकलिङ्गे
एतस्याः
गीता एतस्याः नाम
नाम
नाम सर्वदा नपुंसकलिङ्गे तदर्थं नामः न नाम एव एतस्याः नाम गीता पुनः एकवारं पठतु
आम् एषा मम पुत्री एतस्याः नाम गीता
एतस्याः नाम गीता उत्तमम् अग्रे सुकन्या भगिनी पठतु सुकन्या भगिनी अस्ति वा पठतु अत्र मालायाः वचनं पठतु
भवतः पत्नी का
न भवतः
कुत्र भवतः पत्नी कुत्र अस्ति
कुत्र अस्ति
मम पत्नी अन्यत्र
अन्यत्र अस्ति अथवा शी इस् देर्
सा अन्यत् अत्र अस्ति
न अत्र इत्युक्ते हियर्
ओ अच्छा तत्र अस्ति
मम पत्नी
मम पत्नी
अनन्तरं
सा नाम विमला
न अगेन् यु आर् मिक्सिङ्ग् एषा अण्ड् सा इट् इस् हर् इट् इस् पोसेसिव् फार्म् यु केनाट् से
एतस्या नाम विमला
नो शी इस् देर् सो हौ विल् यु से शी इस् फार् आफ्
सा सा नाम
नो सा इस् जस्ट् शी एषा सा इस् जस्ट् शी नियर् बै अण्ड् फार्
आफ् तस्य नाम विमला
नो पुनः तस्य किमर्थम्
तस्य पुल्लिङ्गं तस्याः नाम विमला
तस्याः नाम चिन्ता मास्तु इट् विल् कम् बै प्राक्टिस् यु नीड् मोर् प्राक्टिस् तस्य सो तस्याः नाम
तस्याः नाम विमला
विमला किमर्थं सा दूरे तिष्ठति हरेः पत्नी दूरे तिष्ठति तदर्थं सः वदति सा मम पत्नी तत्र अस्ति दूरे समीपे नास्ति सा दूरे अस्ति मम पत्नी तत्र अस्ति तस्याः नाम किमर्थं सा दूरे अस्ति हर् नेम् होर् स्टाण्डिङ्ग् फार् or who's poor far off strilinge tasyah nama vimala iti vadati sah astu anantaram mala pruchyati vadatu bhaini suganya bhaini
saka
saka
sa
सिङ्गर् इत्युक्ते किं
गायिका
गायिका उत्तमं सा गायिका
एषा एषः
सा गायिका इस् दिस् युर् सन्
एषा तव पुत्रः
न न नो तव वि आर् नाट् यूसिङ्ग् तव हियर् इन्स्टेड् आफ् तव ओन्लि वि आर् लर्निङ्ग् वाट् फार् युवर्
तस्य
न तस्य इस् फार् वाट् फार् युवर् वाट् इस् इट् जस्ट् थिङ्क् What is the first lesson we learned? What is your name? What is your name? That is what we learned.
Sa bhavati putraha ka?
Na. You were. your, what is the form for your, what is the first lesson we learned? वदतु, चिन्तयतु.
भवत्याः.
विसर्गेण सह वदतु, भवत्याः, स्पष्टं, भवत्याः, एतस्याः,
तस्याः.
We have to, we should hear that visarga. You cannot say ha, etasya, tasya na. एवमेव पुल्लिङ्गे एषः सः.
एषः भवत्याः पुत्रः का?
का न, किम् अथवा वा? एषः भवत्याः पुत्रः वा?
एषः भवत्याः पुत्रः वा?
अथवा पुत्रः किम्? इदानीं किं, कुतः? न न इदानीं शिवः कुतः आगतवान्? शिवः वदति, शिवं पृच्छति, परन्तु शिवः वदति भवतः पुत्रः वा. अस्तु, शिवः इदानीं हू शिव? रमेश् महोदय.
आम्, एषः मम पुत्र
पुत्रः
पुत्र पुत्रः
आम्, एषः मम पुत्रः. धन्यवादः. अग्रे पुनः शोभनादित्य महोदय.
तस्य पुत्रः नाम किम्?
नो 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 think what is your son's name. Kimartam bhavan, you are mixing tasya, everything. Think what is your son's name. So these two are in possessive form, so how will you say that? Both your and son's, these two are in possessive form. Think about, because Hari is talking to Shiva, so this your has to be in masculine gender. And again, sons, what is the possessive form of putraha? Put them together and then form a question.
Bhavatah putrayah naam kim?
No, 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 no. दोषः महोदय, चिन्तयतु, पुल्लिङ्गे कथं वा पठामः पोसेसिव् फार्म्, सम्बन्धवाचकः? अन्य कोऽपि प्रयत्नं करोति वा? जयरामन् महोदय प्रयत्नं करोति वा?
जयरामन् अस्मि. भवतः पुत्रस्य नाम किम्?
उत्तमं, भवतः पुत्रस्य नाम किम्? अग्रे शिवमहोदय, रमेश् महोदय वदतु.
हा, मम पुत्रस्य नाम रामः.
रामः. मम पुत्रस्य नाम रामः.
रामः.
पुनः शोभनादित्य महोदय प्रयत्नं करोति वा?
सः कः?
सः कः? रमेश् महोदय.
सः वैद्यः.
सः वैद्यः. उत्तमम्. शोभनादित्य महोदय वदतु.
धन्यवादः.
पुनर्मिलामः.
पुनर्मिलामः.
सो आल् आफ् यू प्लीस् डोण्ट् गेट् मिक्स्ड् अप् वित् वाट् इस् मम.
My.
भवतः?
Your.
कस्मिन् लिङ्गे अस्ति?
पुल्लिङ्गे.
अस्तु, अनन्तरं अनन्तरं पुनः
भवत्याः
कस्मिन् लिङ्गे अस्ति?
स्त्रीलिङ्गे.
स्त्रीलिङ्गे. सो आल् दीस् आर् सम्बन्धवाचकः, पोसेसिव् फार्म्. दिस् इस् ओन्लि फार् मम, भवतः. दिस् इस् द वेरि फस्ट् लेसन् वी लर्न्. भवती बिकम्स् भवत्याः. एनि ईकारान्तं स्त्रीलिङ्गपदं, पोसेसिव् फार्म्, as I showed, bhavati, the long e drops off. This is bhavati. So to change this into possessive form, what will we do? Bhavati becomes, the ti is it yogaha i. It yogaha. What is it? It will drop off. It's not pulling off. So, it yogaha e, that e will drop off and it becomes bhavatyaha. That is how we got this bhavatyaha in the very first lesson, because we did not teach that in the very first lesson until we came here. So, that is how we got this bhavatyaha. भवती बिकम्स् भवत्याः, पुत्री बिकम्स् पुत्र्याः, अनन्तरं सी लेखनी लेखन्याः, द्रोणी द्रोण्याः, अनन्तरं तत् विहाय इदानीं सो दिस् इस् वाट् इस् दिस् तस्याः एतस्याः. सो वाट् डस् दिस् मीन्? यु डोण्ट् गेट् कन्फ्यूस्ड्. सो एषः बिकम्स् एतस्याः, सारि, एषा बिकम्स्, क्षम्यताम्, एषा बिकम्स् एतस्याः. सो शी, that is whoever is nearby, becomes her. To say her, this is she nearby, and her is etasyah. Evameva sa becomes tasyah in the possessive form. So this is again her, far off, distance. Samipe dure, esha samipe, this is she, again, sa, dure, she. Etasyah, her, samipe, tasyah, dure, her. Evameva, pullinge, eshah, eshah, kim bhavishyati?
Etasyah.
Etasyah. तत्र विसर्गः नास्ति, परन्तु अत्र विसर्गः अस्ति. पुल् पोसेसिव् फार्म् विल् हाव् विसर्ग फार् स्त्रीलिङ्ग, एण्ड् द प्रोनौन् फार्म् विल् हाव् विसर्ग फार् पुल्लिङ्ग. एषः स्पष्टं, वि हाव् टु प्रोनौन्स् दट् विसर्ग. वि केनाट् लैक् हिन्दी, यु केनाट् एष, नो, एषा न, एषः, एषा, इट् शुड् बि स्पष्टम्. Otherwise, as you go to the next level, everything will get mixed up. Okay? Saha. So, Saha becomes, this is, Eshaha, he. Samipe, Samipe, Saha, Dure, Dure. Tasya.
Tasya.
Tasya. And here, again, अहं बिकम्स् मम, एण्ड् देन् भवान् बिकम्स् भवतः, अनन्तरं भवती बिकम्स् भवत्याः. स्पष्टम् ऐ मै यु युवर् पुनः यु युवर् हि हिस् समीपे दिस् इस् फार् समीपे all these are samipe esha dure both are dure dure sa tasya ha dure parantu strilinge
yes
avagatam
avagatam
एवं दिस् वन् समीपे पुनः पुल्लिङ्गे समीपे पुल्लिङ्गे दूरे सो आल् इस् जस्ट् रिमेम्बर् दीस् थिङ्ग्स् एण्ड् थिङ्क् whether which form it is don't get mixed up with esha sa ma bhavatah bhavatyah etasya tasyah no it has to be clear this is the foundation astu spashtam agre gachamah va astu idani सर्वे कृपया म्यूट् मध्ये तिष्ठन्तु आल् आफ् यु प्लीस् म्यूट् इदानीं सुधा भगिनी इदानीं वदतु भगिनी
The book's name is Meghadootam. Pustakasya nama Meghadootam.
Kevala, Pustakasya nama Meghadootam. Eva meva. Agre, Jayanti Lakshmi, Bagini.
My class is Aham. मम जनकः नाम
न फादर्स् पुनः
तस्य मम पित्रस्य
वाट् इस् द वर्ड् फार् फादर्
जनकः
जनकः नौ चेञ्ज् इट् इन् टु
जनकः
वदतु
जननस्य
जनकः वै डस् इट् बिकम् जननस्य
जनकस्य
वेर् कम् फ्रम् देर् जनकः बिकास् जनकस्य दत्स्
मम जनकस्य नाम कृष्णः
कृष्णः जनकः दिस् इस् जनकः ओके सो देर् इस् द एण्ड् डस् नाट् चे ओन्ली द विसर्ग गोस् एण्ड् इट् बिकम्स् जनकस्य दट्स् इट् नथिङ्ग् चेञ्जस्
जनकस्य
आल् वि डू इस् रिमूव् दट् विसर्ग एण्ड् एड् वन् इस्य टु देट् दट्स् इट् ओके अग्रे शान्ति भगिनि अग्रे वदतु भगिनि
दिस् इस् मै मदर् हर् नेम् इस् दिस् इस् मै मदर् एषा मम जननी एषस्य नाम एतस्याः नाम भागीरथी
एतस्याः नाम भागीरथी. उत्तमम्. जननी सो जननी विकाननी विकान
जनन्या
जनन्या
जनन्याः
If I ask, or if you want to say, my mother, my mother, so and so, then you can say, Jananya.
Jananya.
The voice is not coming clear, it's coming double.
Sarve Kripaya, mute Kurvanto. Sarve, mute Kurvanto. Kripaya, Kripaya. Vadatu Vaini? Pruchadu Vaini? You had question. Pruchatu.
That is my daughter. My daughter's name is.
Krishna Hasti Kalu. Somebody had question.
Bhagini, Bhagini, Ekaha Prashna. Ekaha Prashna.
Pruchatu.
Edi. Edi.
So we are going to learn words ending with A and E for feminine gender. In this level. Even though it sounds Mata, it is not Akarantam. The actual word is Matru, Rikarantam. That becomes Mata. Okay, the rule for that, possessive form for Mata is different. So it will be confusing. We don't want that now. So in this book, we will deal only with Dirga Ikarantam and Akarantam for feminine gender and Kevalam Akarantam for masculine gender and neuter gender. Okay? So Janani. So this is my mother. Her name is so-and-so. Etasyah Nama Bhagirathi. Atava, my mother's name is Bhagirathi. If you want to say, this is my mother, Esha Mama Janani, Mama Jananyah Nama Bhagirathi. You can say that way also. Agreka Vadati, who got the turn? Vibha Bhagini Vadati Va? Whose turn it is? Shanti Bhagini, did you get it?
This is my mother.
No, Vibha Bhagini, read this please. This is my daughter.
Okay. That is my daughter. My daughter's name is Srishti. That is Yaha.
No, this is not that is not a possessive form.
Oh, that is not.
I want you to say that is my daughter. Simple sentence. Oh.
Sa mama putri.
Sa mama putri. Here in the first sentence, my is the possessive form. So mama. So sa mama putri. Abhavat. So the first sentence is done. Now comes the second sentence. Again, my, you will put
daughter.
Mama. Daughters. So putri will become
Putrasa?
No.
Daughters.
What is Ikaranta Padam, feminine gender? How does it change in possessive form?
Does it not become the Iksa at the end?
No. Everything will have Yaha in the end. But how does Ik. So, what is the Padam? What is the end vowel in Putri?
Putriyaha?
Putri पुत्र्याः
मम पुत्र्याः नाम
सृष्टि अस्तु
राइट द पुत्र्याः इन
थैंक यू
दिस इज पुत्री जस्ट डॉटर पुत्री इज जस्ट डॉटर टू से डॉटर्स सो हाउ विल यू से
पुत्र्याः
अवगतम् सो दट् ई विल् ड्राप् आफ् जस्ट् दट् प्र स्टाण्ड्स् पुत्र्याः पुत्र्याः
ओके
अवगतम् अस्तु एण्ड् नौ कम्स् रम्या भगिनी
मम युतकस्य
मम वर्णः
रक्तवर्णः
रक्तवर्णः अथवा मम युतकस्य वर्णः रक्तः युतकस्य वर्णः रक्तः अग्रे पुनः शोभनादित्यमहोदय फ्रेण्ड् मित्रं ओके मित्रं मित्रः न इट् इस् आल्वेस् इन् नपुंसकलिङ्गम् मित्रम् इस् आल्वेस् इन् नपुंसकलिङ्गम्
मम मित्रं तत्र अस्ति
मम मित्रं तत्र अस्ति इदानीं
तस्य नामः गिरि
नामः न नाम
तस्य नाम गिरि
गिरिः
गिरिः
गिरिः उत्तमम् अग्रे सुधा भगिनी इफ् ऐ वाण्ट् शोभनादित्यमहोदय इफ् ऐ वाण्ट् टु से मै फ्रेण्ड्स् नेम् इस् गिरिः हौ विल् यु से
मम मित्रस्य नामः गिरिः
नामः न नाम
गिरिः
इफ् यु पुट् नामः इट् इस् राङ्ग् ओके इट्स् नाट् पुल्लिङ्गम् इट्स् नपुंसकलिङ्गं नाम अग्रे सुधा भगिनी
दट् इस् मै फ्रेण्ड्स् कार् तत् मम मित्रस्य वाहनम्
तत् मम मित्रस्य वाहनम् उत्तमं सुकन्या भगिनी दीस् आर् मै आक्चुलि ऐम् सारि अस्तु वदतु भगिनि सुकन्या भगिनी अस्ति वा
ओके दीस् आर् मै फर्गेटिङ्ग् द वर्ड् मम जनन्याः उपनेत्राः
उपनेत्रः न उपनेत्रं नपुंसकलिङ्गम् एतत्
एतत् मम जनन्याः उपनेत्रम्
एतत् मम जनन्याः उपनेत्रम् अग्रे जयन्ती लक्ष्मी भगिनी
मम
अत्र किम् अस्ति भगिनि?
She is my she is my brother, she is my sister friend. एषा मम भगिनी भगिनीस्य मित्रम् एषा मम भगिनी भगिनीस्य मित्रम्
No, it is she, it is in Sreelinga Padam. So just think about Esha or Sa, that's it.
Esha.
Esha nasti na, Esha maastu bhaini, kimartam Esha, is this what linga is this?
This is feminine.
Why do you use Esha then?
Esha, sorry sir, Esha, Esha mama.
No, Bhaginyasya Kimartam, punah punah, I keep repeating, when it comes to Sri Linga, wow, how will you change it to possessive form?
Bhaginisyaha. Mitram. Bhaginisyaha.
Why do you bring Isya and Yaha together?
Bhaginyaha. 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 भगिन्याः भगिन्याः
आकारान्तपदम् अनुजायाः अनुजा अनुजायाः क्षम्यताम् तत्र किमपि अस्ति सो अनुजा नाट् आनुजा अनुजा अनुजायाः अथवा इफ् इट् इस् युर् यङ्गर् सिस्टर् इट् विल् बि अनुजा इफ् इट् इस् युर् एल्डर् सिस्टर् देन् इट् विल् बि अग्रजा सो इन् दट् केस् इट् विल् बिकम् अग्रजायाः आल् यु आर् एडिङ्ग् इस् वेन् इट् इस् आकारान्तपदं यु आर् एडिङ्ग् ओन् याः एव्रिवेर् यु आर् एडिङ्ग् ओन् याः टु स्त्रीलिङ्गपदम् That's it, irrespective of whether it is ikarantam or akarantam. But only when it comes to ikaranta padam, there is some slight change that law, the e vowel in the end drops off and just the consonant stays back. And then you will add one yaha everywhere. And she, just now I went through everything here. She, he, she, it, esha, sa, that becomes etasyaha, tasyaha. Take your time and think. Just, this is she, just replace it with esha or sa, that's it. And when it comes to my mama, sister, So bhagini, if it is bhagini, ikarantam, so it becomes bhaginyaha. Or if it is anuja, then you can replace it with anujayaha mitram. Esha, mama, so esha, mama, anujayaha mitram. All you need is just this possessive form and this you have learned. For these words, I understand that you do not know the vocabulary or the right word, that we will get it as we practice. But this one, very first lesson, my, bhavan, bhavan, bhavatyaha, bhavataha, mama. That is what we learnt in the very first lesson. And she, it, we learnt in the next lesson. That's it. Now we are learning his, her. And then the words that you do not know, depending on akaranta padam, akaranta padam, masculine or feminine gender, you will be changing it. Just like a mathematical formula, remember it, that's it. Okay, as you practice, you will get it. But you need more practice. As I said, if you just close the book today and then open it next Monday, you are not going to learn anything. or if you are going to do just homework, just whatever is given in the Abhyasa Pustakam, you won't learn anything. You have to come up with simple sentences like this and then try to form your own sentence. Practice with your own sentence. That is how you will learn. Okay? And then, whose turn? Santi Bhagini. He is my brother. His name is. Shanti Vaini, asti Shanti Vaini
asti.
Vadat Vaini, Vadat Vaini.
Sa, mama, brother, or...
Again.
He is a sa.
You have to pronounce that visarga.
Sa, saha.
Sa.
Saga. Mama, Anud, brother, Sago.
Anujaha, Agrajaha, if it is elder brother, it will be elder brother, it will be
Agrajaha,
Agrajaha. If it is younger brother, it will be Anujaha.
Saga, Mama,
Sahodaha.
Saga, Mama, Anujaha, his last name. His name.
Now Baba. He becomes. Now she his, becomes.
His name is. No?
मम तस्य अनुजः
तस्य
सः मम अनुजः तस्य नाम लक्ष्मणः
पुल्लिङ्गे For my, you will put mama.
Brother, Anujaha, Anujaha.
So he can be replaced by Saha or Eshaha. So now, comes my.
Mama.
So let it be a, you have to change it one second. So
my becomes mama and brother.
Brother can be replaced by Sahodaraha. Let us take it as Sahodaraha. It can be any one of them. Sahodaraha. That is the first sentence. Now put them together, all these words. Saha, Mama, Sahodaraha. The first sentence is done. Now comes. सर्वे कृपया कुर्वन्तु सो तस्य आर् एतस्य यु केन् पुट् दट् इस् दट् इस् फार् हिस् नौ कम्स् नेम् सो वाट् इस् द वर्ड् फार् नेम् नाम अनन्तरं दट्स् इट् तस्य आर् एतस्य नाम वाट् एवर् इस् द नेम् यु आर् गोयिङ्ग् टु फिल् दट् इन् सो द सेकेण्ड् सेण्टेन्स् इस् डन् एनी डौट् इन् दिस्
मेम् केन् ऐ हाव् अ क्वश्चन्
पृच्छतु प्रश्नः अस्ति वदतु
प्रश्नः अस्ति
प्रश्नः अस्ति वदतु पृच्छतु
You said you can put etasya or tasya?
Etasya atava tasya.
Why? Is that not just one? Because his name is?
That is, see, if you begin the sentence, assuming that your brother is far away.
Then okay? I understand. Yeah, then you have to do saha. But,
saha. Mama sahodaraha. Okay? So in the second sentence, if you have to if you said the sentence in the first sentence that is my brother and in the second sentence you want to say his name is something harihi let us assume that the name is harihi okay so since he is far off and you already said that is my brother so you will say tasya nama
Okay. In this case, it's tasyaha, right?
Tasyaha na, tasya. No right, visarga, right. no visarga. When it comes to possessive form, masculine gender will not have visarga.
Okay.
When it is no, a pronoun,
it will be... In this sentence right now, he is my brother, his name is Hari. So, in this case, Eshaha Nama...
एषः मम अनुजः सो इफ् यु सी यू केन् से ही केन् बि एनिथिङ्ग् सः आर् एषः डिपेण्डिङ्ग् आन् वेर् द आब्जेक्ट् इस् आर् वेर् द पर्सन् इस् ही केन् बि एनिथिङ्ग् ओके ही इस् मै ब्रदर् सो यू केन् पायिण्ट् औट् शोयिङ्ग् युर् हेण्ड् ही इस् मै ब्रदर् यू केन् शो वित् युर् हेण्ड् ओके सो ही इस् मै ब्रदर् द पर्सन् हू ओवर् स्टाण्डिङ्ग् देर् ही इस् मै ब्रदर् okay ha. or that is my brother you can say if you want if you are getting confused you can put that is my brother
okay
okay
yeah I would say is it nearby and that is far away
yeah
I mean
so this is my brother that is my brother but this he is going to be depending on wherever you are pointing so when it when I just that is why I gave you the choice he So he can be Eshaha or Saha depending on where your brother is standing.
Huh.
Okay? Your brother can be nearby or far off.
Huh.
Okay? So you can, if you just put he is my brother, you can say Saha Mama, that is. So the moment you say Saha, that means your brother is far off. That is
yes,
my
brother.
Okay?
Yeah.
Hmm. So in that case, it will become Tasya Nama. So when you say Eshaha, it is implied statement that your brother is close by.
Nearby.
Okay? Nearby. So in that case, it will become Etasya. Etasya na Etasya. No Visarga. Okay?
Etasya.
Etasya Nama Harihi.
Nama.
So this this saha esha itself implies that whether the person you are talking about is near or far away. And automatically it denotes that it is a masculine gender.
Yes.
Okay. Same way, strilinge. So, no visarga, esha, sa. If you say esha, sa, that means the person you are talking about is using, depending on this esha or sa, that means close by.
Yeah.
In that case, you don't have to say that is, this is. Okay? So here you have, when I say just, this is a general statement where you have the choice to pick between Saha and Yesha.
Okay.
Okay? Got
it? Yes, yes, thank you.
But if I specifically, if I have written the sentence, that is mine or this is mine.
Then it's clear that this is nearby, which is Yesha.
Yeah. Yes.
And that is like a Saha.
Yes. Okay, got it?
Okay. Thank you.
Uttama. Evam, Prichato, any number of questions you are you can ask. That is how you have to get it cleared.
What
is the possessive form of Harihi?
Mahodayasya.
Harihi, we don't want to learn now. No, Mahodaya. It is Ikaranta Padam, Hrasva Ikaranta Padam, Pullinga Padam. That will be confusing. Okay, Harehe. It will become Harehe. We don't want that now.
My this thing is Sahodarasya Namaha Ramaha.
Namaha Nama.
Sahodarasya Nama Ramaha. So that will be Sahodaras, brother's name is Rama.
Okay.
Thank you.
Okay. Namaha, don't put visarga with namaha, it is only nama. Napusakalinga padam tatta. Tadatta visarga nasti tatra.
Ramaha.
Avagatam? Prashnaha santiva, agre gachamaha. I wanted to teach some verbs today. I sent a list of verbs to all of you. So today we'll be learning. So as I said, see, in every class you'll be learning a new lesson. If you are not going to be thorough with what you have learned so far, then it will lead to confusion, lot of confusion. See, slowly we are adding. See, in the very first class, you learned only eshaha saha esha sa, this, that, with all strilinga padam, pullinga padam, and napunsakalinga padam. This is my brother, all two word sentences. This is my brother, eshaha balakaha, or this is a boy, that is a girl, this is a policeman, that is an old man. So all are two word sentence, that's it. There were only two words in a sentence. This is a boy, Eshaha balakaha. So two words in that sentence. Sa balika, that is a girl. That's it. So in the next step, you learn, is this a boy? So slowly we are adding one verb or one more word to that sentence to make sure that whether it is a boy or a young man, old lady or a young lady, to make sure. So you are adding Esha Balika Va. So now Esha Balika became Esha Balika Va. Esha Balika Kim. So you added one more word to that sentence, which made it into a question. And again, the next step, we learned Atra Tatra Kutra Asti. So using that, now the sentence became longer. Balika tatra asti. Atava mama putri tatra asti. Esha bhavatyaha putriva. Is this your daughter? भवत्याः पुत्री कुत्र अस्ति? वेर् इस् युवर् डाटर्? मम पुत्री तत्र अस्ति. सो इट् बिकेम् फोर् वर्ड्स् इन् वन् सेण्टेन्स्. सो अगेन् इन् देट् आल्सो वि लर्ण्ड् कुत्र, दट् अस्ति नास्ति इस् अ वर्ब् इन् देट् सेण्टेन्स्. नौ वि आर् गोयिङ्ग् टु लर्न् मोर् वर्ब्स् एण्ड् द sentence is going to be it is going to become lengthier. So you should be very clear about he, she, it, your, I, his, her. Without these you cannot form a neat sentence. Okay, so keep practicing it repeatedly. Otherwise as we proceed to next lessons, it's going to be addition only. In every lesson there is going to be one addition. So you have to be thorough with the foundation. If the foundation is not good, then you will lose interest. I don't want that to happen. I want all of you to come to the class and continue learning this beautiful language. So we are trying to make it as simple as possible, and if you have questions, doubts, please get it cleared. There is nothing wrong. Keep asking questions and we can learn this repeatedly. We can go a little bit slow also. There is no rush. Okay? Today we are going to learn adya vayam sarve kriya padani. Kanichana kriya padani patamaha. Astu aham idanim. क्रियापदानि पठामः अद्य. भवतः समीपे क्रियापदानि दट् लिस्ट् डु यु हेव् दट् लिस्ट्?
आं महोदय.
अस्तु, स्थापयतु, अहं वदामि. एषः बालकः. एषः कः? एषः बालकः. एषः किं करोति? करोति मीन्स् टु डु. Okay, eshah kim karoti, some action. He is doing some action. Eshah kim karoti? Eshah kridati. Eshah kridati, he plays. That's it. Athava if you want to say the boy plays, balakah kridati. Again, if you want to say this boy place, eshah balakah kridati, this boy plays. Esha balika, esha balika, vayam sarve janimyam. Esha kim karoti? Esha khadati. Esha kim karoti? Esha khadati. Khadati is to eat. So all the verb, if you notice, for third person, that is he, she, it, you, that is bhavan, bhavati, when you are going to form a sentence using you eat, you go, you come, that also will end with ti. Esha balika, esha khadati, esha khadati. सः क्रीडति अथवा एषः क्रीडति. अग्रिमम् पुनः एषा किं करोति? एषा किं करोति बालिका?
एषा लिखति.
एषा लिखति. बालिका लिखति. लिखति इत्युक्ते टु रैट्. बालिका लिखति. All third person, as I said, he, she, it, and then bhavan, bhavati will end with, the kriya padam will end with ti, 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 when you are talking about someone else, and bhavan and bhavati. Agre, Shobhanaditya, Mahodaya, esha kim karoti?
Balika gayati.
Esha bhavati.
गायति.
गायति
बालिका गायति अथवा एषा गायति. उत्तमम्. अग्रे सुकन्या भगिनी, महिला किं करोति अथवा युवती किं करोति?
युवती नर्तनं करोति, नृत्यति.
नर्तनं करोति अथवा नृत्यति, नृत्यति अथवा नर्तनं करोति. उत्तमम्. विभा भगिनी, बालकः किं करोति?
बालकः सुचति. बालकः
चिन्तयति.
चिन्तयति.
टु थिङ्क्. ओके, सो द बाय् थिङ्क्स्. बालकः चिन्तयति. अस्तु, जयन्ती लक्ष्मी भगिनी, एषा किं करोति?
एषा रन्निङ्ग् क्रीडति, रन्निङ्ग्
धावति.
एषा धावति.
धावति अथवा बालिका धावति. बालकः चिन्तयति. अग्रे रमेश महोदय, अध्यापिका किं करोति?
अध्यापिका पठति.
पठति इस् टु रीड्, टु टीच्. पाठयति.
पाठयति.
अध्यापिका पाठयति.
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 अग्रे कृष्णन् महोदय, युवती किं करोति?
युवती पिबति.
युवती पिबति. उत्तमम्. रम्या भगिनी, बालिका किं करोति?
बालिका पठति.
बालिका पठति. सुधा भगिनी, वृद्धः किं करोति?
वृद्धः नयति.
चलति, गच्छति अथवा हि गोस्. इफ् यु से चलति वाक्स्, इफ् यु से गच्छति देन् हि गोस्. द ओल्ड् मेन् गोस्. वृद्धः गच्छति अथवा वृद्धः चलति. द ओल्ड् मेन् वाक्स्. अग्रे जयरामन् महोदय, युवती अथवा अम्बा किं करोति?
अम्बा पचति.
अम्बा पचति. उत्तमम्. अग्रे शान्ति भगिनी, बालकः किं करोति?
बालकः नमस्ते.
बालकः नमति. नमति. उत्तमम्.
बालकः नमति. बालिका
हसति. उत्तमम्. अग्रे जयरामन् महोदय, वृद्धः किं करोति?
वृद्धः तिष्ठति.
वृद्धः तिष्ठति. रमेश महोदय, वृद्धा किं करोति?
वृद्धः उत्तिष्ठति.
न, टु सिट्. उपविशति. वृद्धा उपविशति. वृद्धः तिष्ठति. तिष्ठति इस् टु स्टाण्ड्. उपविशति इस् टु सिट्. ओके
ओके ओके.
पुनः who did not get a turn? Is there anyone? Vibha Bhagini, balika kim karoti?
बालिका भोजन करोति
भोजनं करोति दट् इस् आल्सो करेक्ट् खादति डैरेक्टली इस् टु ईट् खादति
बालिका खादति
खादति बालिका खादति युवकः किं करोति युवकः चालयति
युवकः चालयति
चालयति इस् टु ड्रैव् हि ड्रैव्स् चालयति युवकः चालयति बालिका खादति अग्रे अवगतं वा एनी डिफिकल्टी इन् दिस् सो एनिथिङ्ग् भवान् खादति इफ् यु से भवान् खादति इट् विल् बि यु ईट् भवान् गच्छति दट् मीन्स् यु गो सेम् वे दट् विल् बि इन् मास्क्युलर् फार्म् मास्क्युलिन् जेण्डर् फेमिनिन् जेण्डर् इट् विल् चेञ्ज् टु भवती खादति यु ईट् भवती गच्छति यु गो भवती आगच्छति So in the verb form, there is no difference, irrespective of whether it is pullingam, napunsakalingeva, atava strilingeva, everything will end with ti only. There is no gender difference. Okay, irrespective of balakaha gachati, balika gachati, vahanam gachati. All the three will have gachati, gachati, gachati only. Okay, the boy goes, the girl goes, and the vehicle goes. That's it. Balakah gachati, balika gachati, vahanam gachati. Anantaram evameva, balakah agachati, he comes, balika agachati, the girl comes, vahanam agachati, the vehicle comes. Okay? There is no linga veda tatra. Anantaram, so that is for third person and you. So since we are using bhavan and bhavati for you here, the verb remains the same for third person and you also. There is no difference. Now, coming to myself, when I am going to talk about myself, how will I say? How will I say? All the ti will change to me. Remember like that. That is the easiest way to remember. The ti will change to me, me. You are talking about yourself. Me, me, me. Remember like that. Aham khadami. That is I eat. Aham gachami. So the ti will change to me when you are talking about yourself. Aham khadami. Aham gachami. Aham agachami. And then my son goes. Mama putraha gachati. Mama putraha gachati. That is third person. And then aham, if I want to say aham, I will sleep. Aham nidram karomi. I stand. Aham tishtami. I will sit. I sit. Aham upavishami. I sing. Aham gayami.
Avagatam va? To see the screen, sorry.
Kim bagini?
I don't know. I'm not able to see the screen anymore.
No, I'm not sharing the screen. I'm just, okay. I have okay. stopped sharing the screen. Okay, no problem. No problem. Astu, idani, bhavantah sarve ekam ekam vakyam vadatu. So, Shobana Aditya Mahodaya Arabhya ekam ekam vakyam. Vakyam. Hmm? Something, you using the verb, padatu. One in third person and one in Uttama Purusha.
Aham idanim upavishyami.
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 Aham upavishyami. Anantaram.
सा गच्छति
सा गच्छति उत्तमम् इदानीं सुधा भगिनी
अहम् उत्तिष्ठामि सः उत्तिष्ठति
सः उत्तिष्ठति उत्तमं सुकन्या भगिनी
अहं पुस्तकं पठामि सः पुस्तकं पठति
सः पठति अहं पठामि उत्तमं जयन्ती लक्ष्मी भगिनी
अहं गच्छामि सा गच्छामि
अहं गच्छामि अनन्तरं
सा गच्छाति
गच्छाति न गच्छति
गच्छति
अहं गच्छामि सा गच्छति उत्तमं शान्ति भगिनि शान्ति भगिनी अस्ति वा आर् यु देर्
अहं गच्छामि
अन्यं पदं स्वीकरोतु भगिनी केवलं गच्छामि गच्छामि मास्तु स्पीक् समदर् वर्ड्
अहं पठामि पठामि सा आगच्छति
अहं पठामि न पठामि अहं पठामि अनन्तरं
सा आगच्छति
सा आगच्छति उत्तमं जयराम महोदय
अस्मि बालकः क्रीडति अहं प्रातःकाले संस्कृतं पठामि
उत्तमम् अथवा देवं नमामि अहं नमामि अग्रे रमेश महोदय नास्ति वा गतवान् इति मन्ये सः अस्तु विभा भगिनी वदतु भगिनि
अहं अहं चिन्तयामि
बिकास् यु वेन् यु रिमेम्बर् लैक् देट् ओके फार् टैम् बीङ्ग् टु रिमेम्बर् इट् इन् अ ईसियर् वे इस् वेन् यु आर् टाकिङ्ग् अबौट् युर् सेल्फ् इट् विल् द वर्ब् विल् एण्ड् वित् मी ओके
एम् ऐ राइट्
ओके सो अहं चिन्तयामि
अहं चिन्तयामि
अहं चिन्तयामि अनन्तरम्
And I have a question. They said, oh, Saha Gachati. What does that mean?
He goes.
Oh. Okay.
Gachati is go. Agachati is come.
Agachati is come.
Okay. You have that verb list, right? I sent.
I need to print that out. I didn't have it with me. That's how I was looking.
It's okay. Because it has all the meaning also in that. Okay?
Yes,
all the verb meaning. Okay. Okay. No problem. सो अहं गच्छामि सः आगच्छति कृष्णन् महोदय
सारी ऐ जस्ट् वाण्ट् बिकास् यु सेड् यु केन् प्रिण्ट् ऐ ट्रै टु प्रिण्ट् इट् इस् नाट् प्रिण्टिङ्ग् अम इट् सेस् प्रिण्टिङ्ग् इस् नाट् अलौड्
ओ मेबि ऐ विल् ट्रै टु सी मेबि ऐ हव् लाक्ड् इट् ओके ऐ विल् ओपन् इट् अप्
थेङ्क् यु
धन्यवादः महोदय कृष्णन् महोदय वदतु
अहं दूरदर्शनं पश्यामि सः फलं खादति
अति उत्तमं रम्या भगिनी
मम अध्यापिका क्रियापदानि पाठं पाठयति मम पुत्रः निद्रां करिष्यति
करोति okay karishyati will be in future tense we don't want it right now so karoti nidram karoti mama putrah nidram karoti janakah uttishtati जनकः उत्तिष्ठति अनन्तरं देवं नमति जनकः उत्तिष्ठति नमति देवं नमति सो हि गेट्स् अप् एण्ड् देन् हि प्रेस् देवं नमति अवगतं वा वि विल् फार्म् अगेन् लीविङ्ग् बिहैण्ड् गच्छति आगच्छति ऐ वाण्ट् यू टु यूस् सम् अदर् वर्ब् ओके पुनः शोभनादित्यमहोदय आरभ्य वदतु पुनः नो गच्छति आगच्छति
अहं लिखति
लिखामि
I'm sorry अहं लिखामि सा गच्छति
सा क्रीडति अथवा सा पठति अहं लिखामि सो शी रीड्स् ऐ रैट् सुदामा भगिनी
अहं कर्तयामि सः कर्तयति
अहं कर्तयामि सः कर्तयति कर्तयामि इत्युक्ते टु कट् अहं वस्त्रं कर्तयामि ऐ कट् द क्लात् सः कर्तयति सुकन्या भगिनी
अहं खादामि अहं खादामि सा पिबति
सा पिबति अहं खादामि सा पिबति जयन्ती लक्ष्मी भगिनी
अहं हतति हतामि अहं हतामि एष क्रीडति
एषः क्रीडति जयरामन् महोदय शान्ति भगिनी क्षम्यतां शान्ति भगिनी अस्ति वा वदतु
दूरवाणी पश्यामि अहं दूरदर्शनं पश्यामि दूरदर्शनं पश्यामि सिङ्गिङ्ग्
गायति सः गायति सो नौ इफ् यु वाण्ट् यु केन् यूस् इन्स्टेड् आफ् एषः सः यु केन् आल्सो यूस् नेम्स् आल्सो इन् द प्लेस् रामः गायति गीता नृत्यति सो राम सिङ्ग्स् अण्ड् गीता डान्सस् रामः गायति गीता नृत्यति एवं जयरामन् महोदय वदतु महोदय
मम पत्नी स्नानं करोति अहं पाठं पठति
पाठं पठामि
काफी पिबामि
काफी पानं पिबामि उत्तमं विभा भगिनि
अहं गायामि अहं गायामि गीता हसति
अन्ये सर्वे कृपया म्यूट् कुर्वन्तु
रामायणं पठति
सर्वे म्यूट् कुर्वन्तु कृपया
अहं
Should I repeat again?
वदतु भगिनि
अहं गायामि गीता हसति
गीता हसति उत्तमं कृष्णन् महोदय
गीता नर्तयति अहं पश्यामि
गीता नृत्यति गीता नृत्यति अहं पश्यामि ओके नर्तयति न नृत्यति रम्या भगिनी
अहं वार्तापत्रं पठामि बालिका हसति
सो यूसिङ्ग् दट् verb list that I have given. You can form simple, simple sentences. Just don't limit yourself with two words. Okay? So try to apply or use whatever we have learned so far. Everything. Try to how to or think in your mother tongue. Try to form a sentence and then try to translate that. That will help. Or if you are not comfortable, you can try it in English also. But sometimes only the English sentences, sometimes it works out, sometimes it does not. So you can try, but try with the list of the verbs. Please try to form sentences. And the homework is going to be for the next week. I want five sentences from each of you. Don't use that only gachati, agachati. I think there are 64 verbs in that list I sent. So it has meaning also. So look at the meaning and then try to form simple sentences using the verbs and with Uttama Purusha as well as Pratama Purusha. Pratama Purusha is he, she and you. Bhavan, Bhavati. Saha, Yeshaha, Sa, Yesha, Tat, Yetat. Those will come under Pratama Purusha. So all the verbs for that will end with T. And then comes Uttama Purusha when you are talking about yourself. So that verb will end with me. So you can form sentences, mixed sentences using whatever you can. And I repeat again, please go through bhavatah, bhavatyah, mama, yeshah, yesha, sa, and then yetasya, tasya, yetasyah, and the possessive forms of ikarantapadam, akarantapadam, srilingam, and akarantapadam. So if you have any difficulty or doubt, we can go slowly. There is no problem. So I wanted to show some story one more second. Since we have learned one minute, we will take 5 minutes more and then we will learn a story today and end the class. Since we have learned verbs, we can use that so that I think you should be able to understand. Each one of you get one sentence to read, okay? Shobana Aditya Mahodaya Patatu.
Ekaha kakaha asti.
Ekaha kakaha asti. Avagatamva sarvaihi.
Sabhu vahu trushtade asti. Trushtadara asti.
Trushitaha asti. Trushitaha.
Trushitaha.
Bahu trushitaha asti. Ityukte? Was very thirsty. Trushitaha ityukte? Thirsty. Bahu trushi, very thirsty. He is very thirsty. Agre Sukanya Bhagini.
Saha jalartham sarvatra gachati.
Sarvatra gachati. So what is the meaning?
He goes in search of water, everywhere.
Sarvatra gachati. For water. Jayanti Lakshmi Bhagini.
Tada Grishma Kalaha.
Grishma Kalaha itupi summer.
Summer.
Agre.
Tada
means then.
Then.
Shanti Bhagini.
Kutra abhi jalam na.
Kutra abhi jalam nasti.
Nowhere water.
There is no water anywhere. Atava. Jayaraman Mahodaya.
Kakaha
kashtena bahuduram gachati. So he goes again far away in search of water. Ramesh Mahodaya Nasti. Vibha Bhagini.
एकत्र एकं गातं
पश्यति
पश्यति
पश्यति मीन्स् टु सी सो एकत्र इत्युक्ते किं वि लर्न्ड् एकत्र सर्वत्र इन् वन् प्लेस् एकत्र पश्यति घटम् इत्युक्ते घटः इत्युक्ते पाट् घटं पश्यति सो हि सीस् वन् पश्यति इस् टु सी सो हि सीस् वन् पाट् अग्रे कृष्णन् महोदय
घटे
कृष्णन् महोदय पठति कृष्णन् महोदय अस्ति वा
घटे किञ्चित् जलम् अस्ति
घटे किञ्चित् जलम् अस्ति घटे किम् अस्ति किञ्चित् जलम् इट् इस् वेरि लिटिल् वाटर् रम्या भगिनि
जलं कथं पिबामि इति चिन्तयति
चिन्तयति सो चिन्तयति सो वि लर्न् दट् चिन्तयति इत्युक्ते टु थिङ्क् सो जलं कथं पिबामि सी हि इस् थिङ्किङ्ग् टु हिम्सेल्फ् पिबामि हौ एम् ऐ गोयिङ्ग् टु drink water so things is the crow
ekam upayam karoti
so he comes out with an idea ekam upayam karoti punah shobana aditya mahodaya
shila khanda khandana anayati
घटे क्षिपति आनयति आनयति इस् टु ब्रिङ्ग् क्षिपति इस् टु थ्रो आर् टु ड्रा ओके शिलाखण्डान् इत्युक्ते स्माल् पेबल् ओके सो शिलाखण्डान् आनयति सो हि ब्रिङ्ग्स् पेबल्स् घटे क्षिपति थ्रोस् इन् टु दट् पाट् सुधा भगिनी
जलम् उपरि आगच्छति
सो द वाटर्
जलं
कम्
उपरि
सो आगच्छति इस् टु कम् ओके सो वाटर् कम्स् अप् सुकन्या भगिनि
काकः जलं पिबति सन्तोषेण गच्छति
काकः जलं पिबति प्रो ड्रिङ्क्स् वाटर् गोस् हेपीली सन्तोषेण गच्छति इष्टवन्तः वा कथां अस्तु इदानीं शान्तिमन्त्रं वदति वा कोऽपि सर्वे भवन्तु सुखिनः किं
सः गच्छति he goes is it same as he is going
for time being no. he goes yes for time being let us take it as he goes okay so there is present continuous form everything is there but in this book we will just take a general meaning okay prashnaka santiva punah ekavaram patamah etam katam katam punah ekavaram patamah किमर्थम् इत्युक्ते बहवः जनाः गतवन्तः पुनः एकवारं पठामः अभ्यासं भविष्यति इदानीं समापयामः कोऽपि मङ्गलश्लोकं वदति वा सर्वे भवन्तु सुखिनः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः
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 धन्यवादः भगिनी
धन्यवादः